मम सर्वरक्षां न्यस्त्यांघ्रिपद्मः पतगेन्द्रपृष्ठे दरारिचर्मासिगदेशु चाप पाशान्दधानोष्टगुणोष्टबाहो जलेषु मां रक्षतु मत्स्यमूर्तिः यादो गणेभ्यो वरुणस्य पाशा स्थलेषु माया वटुवामनो व्यात् त्रिविक्रमः खेवतु विश्वरूपः दुर्गेषु टव्याजिमुखादिषु प्रभु पायान्दसिंहो सुरयूथपारी विमुञ्चतो यस्य महाट्टहासं दिशो विनिर्दुर्न्यपतंश्च गर्भाः रक्षत्वसौ माध्वनियज्ञकल्पः स्वदृष्टयोन्नीतधरो वराः रामोद्रिकूटेष्वथ विप्रवासे सलक्ष्मणो व्याद्भरताग्रजोऽस्मा मामग्रधर्मात्खिलात्प्रमादा नारायणः पातु नरश्च हासात् दत्त्वस्तयोगा दथयोगनाथः पायागुणेशः कपिलः कर्मबन्धात् सनत्कुमारो वतु कामदेवा द्वयशीर्षा मां पतिदेवहेलनात् देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मां निर्यादशेषात् भगवान् पार्थपथ्यात् द्वन्द्वात् भयादृशिवो निर्जितात्मा यज्ञश्च लोका दवताञ्जनान्तात् बलो गणात् क्रोधवशादीन्द्रः द्वैपायनो भगवान् प्रबोधात् बुद्धस्तु पाखण्डगणात् प्रमादात् कल्किः कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः मां केशवो गदया प्रातरव्यात् गोविन्दवासङ्गवमात्तवेणुः नारायणः प्राणोदात्त शक्तिः मध्यन्दिने विष्णुररीन्द्रपाणिः देवो परान्ने मधुहोग्रधन्वा सायं त्रिधामावतु माधवो मां दोषे हृषीकेश उत्तार्धरात्रे निशीथ एको वतु पद्मनाभः श्रीवत्सधामा पररात्रीशः प्रत्यूष ईशोऽसि धरो जनार्दनः दामोदरो व्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः चक्रं युगान्ता नलतिक्मनेमी भ्रमत्समन्तात् भगवत्प्रयुक्तं दन्दग्धिदन्धग्धरिसैन्यमाशु कक्षं यथावात् सखो हुताशः ग गदेशनिस्पर्शन विस्फुलिंगे निष्पिंडि निष्पिंड्य जित प्रयासी कूष्मांड वैनायक रक्ष रक्षो भूतग्रहांश्चूर्णय चूर्णयारी त्वं यातु धान प्रमथ प्रेतमात्री पिशाच विप्रग्रह घोर दृष्टि दरेन्द्र विद्रावय कृष्ण पूरितो भीमस्वनोरे हृदयानि कंपयन् त्वं तिग्म धारा शिवरारि सैन्य मीश प्रयुक्तो मम छिन्दि छिन्दि चक्षूंषि चर्मच्छत चंद्र छादय द्विषाम घोनाम हर पापु चक्षुषाम यन्नो भयं ग्रहेभ्यो भूत केतुभ्यो नृभ्य एव च सरीसृपेभ्यो दृष्टिभ्यो भूतेभ्यो होम्य एव वा सर्वाण्येतानि भगवान्नाम रूपास्त्रकीर्तनात् प्रयान्तु संक्षयं सद्यो येनः श्रेयः प्रतीपकाः गरुडो भगवान् स्तोत्र स्तोभश्छन्दोमयः प्रभु रक्षत्वशेषकृच्छेभ्यो विश्वक्सेनः स्वनामभिः सर्वापद्भ्यो हरिर्नाम रूपयानायुधानिनः बुद्धीन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः यथा हि भगवानेव वस्तुतः सदसच्चयत् सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः यथैकात्म्यानुभावानां विकल्परहितः स्वयं भूषणायुधुलिङ्गाख्या धत्ते शक्तिः स्वमायया तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः विदिक्षु दिक्षुर्ध्व मदः समन्ता दन्तर्बहिर्भगवान् नारसिंहः प्रहापयं लोकभयं स्वनेन स्वतेजसा ग्रस्त समस्ततेजाः